स्वदत्ताम् परदत्ताम् वा यो हरेत् स वसुन्धराम् षष्टिर्वर्षसहस्राणि विष्ठायाम् जायते कृमिः बहुभिर्वसुधा दत्ता राजविस्सगरादिभिः यस्य यस्य यदा भूमिः तस्य तस्य तदा फलम् दानपालनयोर्मध्ये दानात् श्रेयोनुपालनम् दानात् स्वर्गमवाप्नोति पालनादच्युतम् पदम्।